प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदा मणिगणैर्नानाविधैर्भूषिता भक्ताभीष्टफलप्रदा हरिहर ब्रह्मादिभिर्सेविता पार्श्वे पंकज शंख पद्म निधि विरुक्तां सदां शक्तिभिः सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे भगवती हरिवल्लभे मनोग्ने त्रिभुवनभूतिकरि प्रसीद मह्यम् प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां वाचां पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टा विभावरीं अदितिं च दितिं दीप्ता वसुधां वसुधारिणीं नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवां अनुग्रहपदां बुद्धिरनघां हरिवल्लभां अशोकां अमृतां दीप्तां लोकशोकविनाशिनीं नमामि धर्मनिलयां करुणां लोकमातरम् पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालां धरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीं चतुर्भुजां चन्द्ररूपां इन्दिराम् इन्दुशीतलां आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करणीं शान्तां शुक्लमाल्यांभरां श्रियं भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुंधरां उदारांगां हरिणीं हेममालिनीं धनधान्यकरीं सिद्धिं स्त्रैण्यां सौम्यां शुभप्रदां नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदां शुभां हिरण्यप्राकारां समुद्रतनयां जयां नमामि मङ्गलां देवीं विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां दारिद्रध्वंसिनीं देवीं सर्वोपद्रवनिवारिणीं नवदुर्गा महाकाली ब्रह्मविष्णुशिवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरी। कटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां मातर्नमामि कमले कमलायताक्षी श्रीविष्णुहृत्कमलवासिनी विश्वमातः क्षीरोदजे कमलकोमलगर्भगौरी लक्ष्मीं प्रसीद सततं नमतां शर